अब बाएं हाथ में जल ले लें, दाहिने हाथ में दुर्वा लेकर उस दुर्वा से वो जल अथर्व शीर्ष पठन होने तक गणेश जी पर छिड़कते रहें।
ओम भद्रंगरणे भिषरणे आम देवा भद्रं वश्ये मा शबिर्य जत्रा सिरे रंगे तुष्टवाम सतनो भिर्योजे मदे दयदायु ओम स्वस्ति न इंद्रो वृद्धशरावा स्वस्ति न पूषा विश्ववेदा स्वस्ति नस्तारक्षो हरितनेन स्वस्ति नो बृहस्पतिर्दधातु ओम शांति शांति शांतिः। ओम नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं कलविदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं प्रथमं वच्मि सत्यं वच्मि अवत्वं माम् अववक्तारम् अवश्रोतारम् अवधातारम् अवधातारम् अवानूचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोर्ध्वात्तात् अवाधात्तात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्वितीयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् त्वत्तो जायते सर्वम् जगदिदम् त्वत्तस्तिष्ठति सर्वम् जगदिदम् त्वयि लयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येति त्वम् भूमिरापो नलो निलो नभः त्वम् चत्वारि वाक्पदानि त्वम् गुणत्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वा योगिनोऽध्यायन्ति नित्यम् त्वम् ब्रह्मा त्वम् विष्णुस्त्वम् रुद्रस्त्वम् इन्द्रस्त्वम् अग्निस्त्वम् वायुस्त्वम् सूर्यस्त्वम् चन्द्रमा त्वम् ब्रह्मपूर्भुवस्वरो गणादिम् पूर्वमुच्चार्य वर्णादिम् तदनन्तराम् अनुसारपरतरः अर्धेन्द्रसुतम् तारेण रुद्रम् एतत्त्वमनुस्वरूपम् ऋकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादसन्धानम् संहिता सन्धिः सैषा गणेश विद्या गणक ऋषिः निश्रुत गायत्री छन्दः गणपतिर्देवता ॐ गङ्गणपतये नमः। एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ते प्रचोदयात्। एकदन्तम् चतुरहस्तम् पाशमङ्कुशधारिणाम् हृदयम् च वरदम् हस्तैर्बिभ्राणम् मूषकध्वजाम् रक्तम् लम्बोदरम् शूर्पकरणम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैः सुपूजिताम् भक्तानुकम्पिनम् देवम् जगत्कारणमक्षिताम् आविर्भूतम् च दृष्ट्यादौ प्रकृतेः पुरुषात्पराम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः। नमो व्रातपतये नमो गणपतये नमः प्रणवपतये नमस्ते अस्तु लम्बोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरुणमूर्तये नमः। एतदर्वशीर्षम् योधीते स ब्रह्म भूयाय गणपते स सर्वविघ्नैर्नबाध्यते स सर्वतः सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायमधीयानो दिवसकृतम् पापम् नाशयति प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायम् प्रातः प्रयुञ्जानो अपापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दति इदमगर्वशीर्षमशिष्याय न देयाम् यो यदि मोहाशास्त्रे स्वापीयान् भवति सहस्रावर्तनात् यय्यम् काममधीते तन्तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति సమాగ్ని భవతి చతుర్భ్యామనష్మంజపతి సవిద్యావాన్ భవతి ఇత్యపరమణ వాక్యం బ్రహ్మాద్యావరణం విద్యాత్ న విభేతి కదాచనేతి యో దూర్వాన్ పురైర్యజతి స వై శ్రవణోపమో భవతి యో లాజైర్యజతి స యశోవాన్ భవతి సమేధావాన్ భవతి యో మోహక సహస్రేణ యజతి స వాంఛిత పరమవాప్నోతి యః సాధ్య సునిర్భిర్యజతి స సర్వన్నవతే స సర్వన్నవతే అష్టౌ బ్రాహ్మణాన్ సమ్యగ్రాహీత్వా సూర్యవర్చస్వీ భవతి సూర్యగ్రహే మహానద్యాం ప్రతిమా సన్నిధౌ వా జప్త్వా సిద్ధమంత్రో భవతి మహావిఘ్నాత్రముచ్యతే మహాదోషాత్రముచ్యతే మహాపాపాత్రముచ్యతే స సర్వవిద్భవతి స సర్వవిద్భవతి య ఏవం వేద ఇత్యుపనిషద్. ఓం సహనావవతు సహనో పునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై. ఓం శాంతి శాంతి శాంతిః.